अस्तश्रौषट्पुरो अग्निन्धिजादधानुतच्छर्धो दिव्यं व्रणेमह इन्द्रवाजो व्रणेमहे यद्धक्राणा विभस्वतिनाभा सन्दाजिनव्यसी अधप्रसो न उपजन्तु धीतजो देवां अच्छा न धीतजाः यद्धत्यन्मित्रा वरुणा वृता दध्या ददाथे अनृतं स्वेन मञ्जुना दक्षस्य स्वेन मञ्जुना युवोरित्थाधिसत्मस्व पश्यामहिरण्ययम् धीभिश्च न मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः युवांस्तोमेभिर्दे भजन्तो अश्विनाश्रावयम् त इव श्लोकमाजवो युवां हव्याभ्या आजवाः युवोर्विश्वा अधिश्रियः पृक्षश्च विश्ववेदसा वृषायन्ते वां पवजो हिरण्यजे रथे दस्रा हिरण्यजे अचेति दस्राव्यो उनाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषो अधिवांस्थावबन्धुरे रथे दस्रा हिरण्यजे रथे भजन्ता मनुषा सता रजोऽञ्जसा शासता रजाः शचीभिर्नश्यचीवसो दिवालग्नम् दशस्यतम् मा वाम् भ्रातिरुपदसत्कदा च नास्मद्रातिः कदा च न वृषन्निन्द्रवृषपाणा स इन्दव इमे सुता अद्रिषुता स उद्भिदस्त्वभ्यम् सुता स उद्भिदाः ते त्वा मन्दन्तु दावने महे चित्राजराधसे गीर्भिरगर्वाहस्तवमा न आगहि सुमृळीको न आगहि ओषोणो अग्ने शृणहि त्वमीळितो देवेभ्यो ब्रवसि जज्ञिजेभ्यो राजभ्यो जज्ञिजेभ्यः यद्धत्यामङ्गिरोभ्यो धेनुन्दे वा अदत्तन वितान्दुह्रे अर्यमा कर्तरि स चाङ्गेषताम् वेद मे स च मोषुव अस्मदभिता निपुंस्यासना भुवन् जुम्नानि मोतजा ऋषुरस्मत्पुरोतजा ऋषुः यद्वश्चित्रम् युगे युगे नव्यम् घोषादमर्त्यम् अस्मासु तन्मरुतो यच्च दुष्टरम् दिधृता यच्च दुष्टरम् दध्यं हमे जनुषं पूर्वो अङ्गिराः प्रजमे धःकण्ठो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः तेषां देवेष्वाजतिरस्माकं तेषु न भजः तेषाम् पदे न मह्यान मे गिरेन्द्राग्नी आन मे गिरा होता यक्षध्वनिनो बन्धवार्यम् बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः जगृह्मा दूर आदिशम् श्लोकमत्रैरधत्मना अधा रजदररिन्दानि सुक्रतुः पुरो सद्मानि सुक्रतोः ये देवासो दिव्येका दशस्थ पृथिव्या मध्येका दशस्थ अप्सुक्षितो महिनैका दशस्थ ते देवासो जज्ञमिमञ्जुषध्वम्